गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं अम्बत्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीं नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम्। प्रारम्भतः एकवारं श्लोकान् वदामः। गीतापुस्तकं स्वीकुर्वन्तु। दशश्लोकाः समाप्ताः। यावच्छक्ति दशश्लोकाः तत्र अस्माभिः मननम् अध्ययनम् उपासना कृता इति मन्ये, तत्र पूर्णतया बैहार्ट् कुर्वन्तु यावच्छक्ति। एवं श्लोकाः स्वयं प्रत्यक्षीभूताः भवन्ति। धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय। सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् पश्यैतां पाण्डुपुत्राणाम् आचार्यमहतीं च मूं व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता अत्र शूरा महेश्वासा भीमार्जुनसमायुधि युयुधानो विराटश्च द्रुपदश्च महारथः धृष्टकेतुश्चेकितानः काशीराजश्च वीद्यवान् पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीद्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः अस्माकं तु विशिष्टा ये तान् निबोधद्विजोत्तम नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्। एतावत्पर्यन्तम् अस्माभिः दृष्टमस्ति। गतकक्ष्यायां गीतायाः अध्ययनक्रमः अस्माभिः दृष्टमस्ति। How should we study the Gita? How should we learn Gita Mata? Is what we had the small process chart what we drew in the last class. Prathamataya tatra asaktihi bhavishyati. We'll have a pure interest to learn. That is where we'll start generally. from the interest it should always transform to a commitment level. Interest will never take us to success, only commitment, a rare commitment which is required to achieve, especially to study a great grantha like Bhagavad Gita, we will always need very very high levels of commitment and inner motivation. Evam asakti taha arabhya shraddha bhakti paryantam gantavyam tasmin marge eva idi vayam gachhamaschete tatra sopanaha yete santi. That these are the steps in which we can slowly climb in the Gita adhyena krama. It will start by studying by self patanam, what we just take a book of Bhagavad Gita and start flipping through the pages. Patanam bhavishyati anantaram shravanam, when we start listening to lot of facts and figures about Gita, the concepts which are there through various teachers and various lectures. Evam shravanam bhavishyati anantaram parayanam nitya parayanam yavat shakti kartavyam. Every day we have to do as much as parayanam in the bus, in the whenever we get time. We can keep small flashcards of Gita, we can keep it in our hand always and keep on reading some shlokas. New meanings will automatically come. These lot of people have experienced, we have experienced through our lives, when each shloka gives us new meanings and new concepts and we keep understanding better. Parayanam, while we are doing parayanam, mananam api bhavishyati. All these shlokas will become, we can reflect upon the shlokas and also by heart them and finally come to a place wherein we are free of doubts about the concepts which have been explained in the Bhagavad Gita. Evam mananam api bhavishyati anantaram adhyenam, further in-depth adhyenam of all the bhashyakaras. Shankaracharyanam bhashyamasti, Madhvacharyanam asti, Ramanujacharyanam, Gudartha Deepika asti, Madhusudana Saraswate hai, one of the best commentaries, again Gudartha Deepika. Again we have Gyaneshwari, written by Sant Gyaneshwar. We have other Radha Krishnan, Arabindo, Chinmayananda, Chidbhavananda, lot of bhashyas are there, Tattva Vivechini, Sadhaka Sanjeevini. All these bhashyas when we study, then depth analysis is there. Even once we start doing it, automatically we get into a mode of nididhyasanam, meditation and contemplation. Tena kim bhavishyati ityukte, finally the real objective of starting to practice Gita in our daily life will also start. Kechana sopanaha samanaditya gachanti. Some of these steps may be parallelly done. We need not be one after another. We can even parallelly do most of these. And after doing this, we truly become a yogi, seeker or a real student of the Bhagavad Gita is what we become. Evam Gitayaha adhyena kramaha asmabhi gatakakshayam drishtamasti. Agre yadi pashyamaschete gatakakshayam navama shlokaha drishtaha. Anye bahavaha shuraha madarthe tyakta jivitaha kidrishaha shuraha nana shastra praharanaha sarve yuddha vishardaha tadrisha shuraha madarthe tyakta jivitaha santi iti Duryodhanah sva acharyam prati dronacharyam prati vadati. Navama shloke agrime dashama shloke pashyamaschete asmakam bhishmena abirakshitam yat sainyamasti kauravanam sainyamasti tat aparyaptamasti anantaram yetesham pandavanam yadi vayam pashyamaschete tat bhimena abirakshitamasti tat kevalam paryaptamasti natu aparyaptam iti Duryodhanah svacharyam dronacharyam prati vadati. Tatra aparyaptam ityasya artha vyatyasah asmabhi drishtah asti. We saw that the word aparyaptam can mean both as unlimited and it can mean as an opposite of that word as insufficient also. Evam we tried analyzing from various other shlokas in the Mahabharata, in Udyoga Parva, in Bhishma Parva also. When we tried seeing the this thing in Udyoga Parva, we saw in Bhishma Parva, if we see that, we saw 2-3 shlokas which point towards aparyaptam being as unlimited only. Because when we see that there are 11 akshohinis which the Kaurava Sainya has and 7 akshohinis which Pandava Sainya has, and he does Duryodhana does have an overconfidence wherein ekaikashah samarthahi yuyam sarve maharathah panduputran ranehantum. Duryodhana tells his army men, yuyam sarve ekaikashah panduputran ranehantum samarthah kimu samhatah tarhi yadi sasainyan, along with armies of all the people यदि सम्मताः, इफ यू ऑल कैन जॉइन टुगेदर, सम्मताः एज यूनाइटेड, सम्मति ही कार्य साधिका, वी नो दिस ग्रेट प्रावर, यूनाइटेड इज ऑलवेज स्ट्रेंथ, सम्मति ही कार्य साधिका, एवं सम्मताः यदि भवन्तः सर्वे सन्ति तर्हि किमु किमु असाध्यम्, तर्हि असाध्यं किमपि नास्ति, पाण्डवान् तत्र जेतुम् अतीव समर्थाः इति सः वदति. एवं वि सा दट् अपर्याप्तं कुड् बेटर् मीन् एस् अन्लिमिटेड् ओन्ली. सो गोयिङ्ग् थ्रू दिस् नौ लेट् अस् कम् टु द 11th श्लोक. तत्र किञ्चित् आङ्ग्लभाषायां किञ्चित् व्यत्यासः अस्ति, कृपया क्षम्यतां, तत् अग्रे तत्र समीचीनं कुर्मः. श्लोकं वदामि, सर्वे तत्र पादरीत्या वाक्यरीत्या वदामः, सर्वे अनुवदन्तु. अयनेषु च सर्वेषु यथा भागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि. वाक्यरीत्या वदामः, अयनेषु च सर्वेषु यथा भागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि. यावत् शक्यते तत्र मूर्धन्यषकारस्य प्रयोगः, अल्पप्राणमहाप्राणां प्रयोगः, यत्र लोपः अस्ति तत्र किञ्चित् विरामः, तत्सर्वं किञ्चित् मनसि ध्यात्वा वदामः. सर्वेषु इति वक्तव्यम्, अयनेषु इति भवति, तत्र षकारस्य सम्यक् प्रयोगः कर्तव्यः, अल्पप्राणमहाप्राणमस्ति, सर्व एव तत्र किञ्चित् अर्धत्रुटिविरामं दद्मश्चेत् सम्यक् भवति, तत्र उच्चारणे सम्यक् भवति. एतत्सर्वं तत्र मनसि विचिन्त्य यदि तत्र उच्चारणं कुर्मश्चेत् अग्रे अग्रे तत् यावदेव स्वयमेव आगच्छति तदुच्चारणम्. इदानीं पूर्णश्लोकं वदामः द्विवारम्. अयनेषु च सर्वेषु यथा भागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि. अयनेषु च सर्वेषु यथा भागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि. तत्र श्लोक इण्डेक्स् रेफरेन्स् यावत् एकादशश्लोकः, सप्तचत्वारिंशत् श्लोकेषु सप्तशतश्लोकेषु एकादशश्लोकः, 11th श्लोक आफ् द 47 श्लोकास् इन् फस्ट् चाप्टर् आफ् द टोटल् 700 श्लोकास् इन् श्रीमद्भगवद्गीता. पदच्छेदः अयनेषु च सर्वेषु यथा भागम् अवस्थिताः भीष्मम् एव अभिरक्षन्तु भवन्तः सर्व एव हि. सर्वे एव हि इत्यपि स्वीकर्तुं शक्यते. तत्र अन्वयार्थं प्रथमतया तत्र यथारीत्या कर्तृपदं कर्मपदं क्रियापदं पश्यामः. इदानीं सम्यक् श्रूयते वा? कर्तृपदं कर्मपदं क्रियापदं अभिरक्षन्तु, सम्यक् क्रियापदं सम्यक् अस्ति, अभिरक्षन्तु के अभिरक्षन्तु? भवन्तः अभिरक्षन्तु, कम् अभिरक्षन्तु, भीष्मम् अभिरक्षन्तु. सम्यगस्ति, वेरि गुड्, अतीव उत्तमं, सम्यगस्ति. एवमेव अतीवसरलं वाक्यं तावत् अतीवसरलमस्ति. गीतावाक्यं तत्र रामायणं महाभारतं पश्यामश्चेत् अति अति अतिसरलवाक्यानि सन्ति. तत्र अतीवसाधारणरीत्या एव अर्थावगमनं भविष्यति. एवं भवन्तः भीष्मम् अभिरक्षन्तु, कुत्र अभिरक्षन्तु? सर्वेषु अयनेषु. कुत्र इति तत्र सप्तमी विभक्तिरेव भवति. तत्र उत्तरं तावत् सर्वेषु अयनेषु अभिरक्षन्तु. कीदृशाः भूत्वा अभिरक्षन्तु? यथा भागम् अवस्थिताः भूत्वा भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु. किमर्थम्? अन्यानपि रक्षितव्यं वा? नैव, भीष्मम् एव अभिरक्षन्तु. तावदेव वाक्यम्, अतीवसरलमस्ति. इदानीं पश्यामः, सर्वेषु अयनेषु यथा भागम् अवस्थिताः. तत्र भवन्तः, द वर्ड्स् बिफोर् दट्, बिकास् भवन्तः इस् द कर्तृपदं, लैक् वी सा भवन्तः तत्पूर्वमेव, वाट् आल् दोस् विच् आर् डिस्क्रैबिङ्ग् भवन्तः आर् हौ दे शुड् बि विल् बि कमिङ्ग् बिफोर् भवन्तः. वि केन् पुट् इट् बिकास् आफ् विभक्ति, वि केन् स्टिल् पुट् इट् लेटर् स्टार्टिङ्ग् वित् कर्तृपदं, बट् स्टिल् कीदृशाः भवन्तः? सर्वेषु अयनेषु यथा भागम् अवस्थिताः भवन्तः सर्वे, भवन्तः सर्वे, यु आल्, भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु. तावदेव अस्ति, अतीवसरलमस्ति वाक्यं तावत्, तत्र किमपि क्लेशः नास्ति. सर्वेषु, सकलेषु, अयनेषु, अयनमित्युक्ते एवं तत्र यत् व्यूहं रचितमस्ति, वीसा वेरियस् व्यूहास्, चक्रव्यूह, वज्रव्यूह एण्ड् अदर् व्यूहास् वाट् वी सा इन् द प्रीवियस् क्लासस्. एवं सर्वेषु अयनेषु यथा भागम् इन् आल् द अयनास् इन् ईच् आफ् दीस् व्यूह दे विल् बी अ द्वारा एण्ट्रन्स् विच् विल् बी देर् इन् आन् द एण्ट्रन्स् आफ् दट् व्यूह द्वारा द मेन् योद्धारास् हू आर् देर् द महारथीस् हूम् वि डिस्कस्ड् विल् बी स्टाण्डिङ्ग् इन् देर् रेस्पेक्टिव् गार्डिङ्ग् देर् रेस्पेक्टिव् अक्षोहिणीस् आक्चुलि. सो एवं सकलेषु व्यूहानां द्वारेषु यथा भागम् इन् वाट् एवर् प्लेस् यु आर् इन् युर् रेस्पेक्टिव् पोजिशन्स् डोण्ट् इमीडियट्लि नौ कम् इन् फ्रण्ट् आफ् भीष्म एण्ड् सरौण्ड् हिम् दट् इस् नाट् हि इस् नाट् टेलिङ्ग् दट् इन् युर् रेस्पेक्टिव् अक्षोहिणी स्टाण्ड् देर् एण्ड् थ्रू दट् स्टाण्डिङ्ग् देर् वेरि वेरि काशियस्लि सर्वे अवस्थिताः तत्रैव स्थिताः डु नाट् मूव् फ्रम् देर् stand in the respective dwaras of your vyuhas wherever you people are all of you sainyah bhavantah sarve all you soldiers and along with all the soldiers and who all are there from the kaurava sainya do one simple task of of bhishmam eva abhirakshantu protect bhishma only okay do not do any other task, do not have any other goal in your mind. Bhishmam eva, Bhishmacharyam eva, abhirakshantu, tatra samrakshanam kurvantu. Evam, tatra dronaha, duryodhanaha, dronam prati vadati, tavadeva anyan sainyan prati api vadati. While telling Dronacharya, talking to him about this, he is also telling this to Dronacharya and through this, trying to instruct the other soldiers and other people also. Evam sakaleshu, sarveshu, in all the places, kritsneshu, akhileshu, ayaneshu, tatra vyuhanam dwareshu, yat chakra vyuha, vajra vyuhadi, tatra vyuhaha yat santi, tesham dwareshu, yatha bhagam, swasva sthane, swasva kriyayam, swasva vyuhayam, तत्र स्थिताः अवस्थिताः भूत्वा सर्वे भवन्तः योद्धारः यूयं सर्वे ये ये सन्ति तत्र यस् तत्र योद्धारः ये ये सन्ति भीष्मम् एव अभिरक्षन्तु. गुड् क्वेश्चन्, वन् आफ् द क्वेश्चन् विच् इस् बीङ्ग् आस्क्ड्, भीष्मा हेज् ही आलरेडी नाट् फालन्? वेरि गुड् क्वेश्चन्. भीष्मा हेज् ओन्ली बीन् हर्ट् बै द एरोस् एण्ड् ही इस् लयिङ्ग् इन् द बेड् आफ् एरोस्. he is still not again being an ichchamarani. Again, he has to only decide by himself that he has to die. But still, he is not yet fully beaten out, or he is not yet killed. If the commander in chief is being killed, or is being fully defeated, kind of a thing, then the war will be in a very, very bad position for the Kauravas. Which is why now Duryodhana is trying to protect one by one, where he can try to save himself. It is a very good question that Bhishma has not fallen. He has fallen down already, but then that, which is why we'll also see that in the Vishesha Tippani, wherein Bhishma again, let us say if Shikhandi or some other people whom Bhishma had taken a vow not to fight, because Shikhandi being a woman by birth, generally Kshatriya rules say that Kshatriyas do not fight with women. So taking that rule, Bhishma had taken a vow that he will not fight Shikhandi, and Shikhandi had come in front. And let us say again Pandava army brings Shikhandi in front and try to kill him, it will be a great loss for them, losing even the moral support of Bhishma being along with them. Therefore, now to first protect the first loss, whatever has happened, he is trying to do a crisis management, emergency crisis management is what he is trying to do. Again, if we see the mental frame of Duryodhana, it is a combination of fear, arrogance, confusion, and now running towards a guru who can help him. So it is a combination feeling. So with those feeling, he is telling these shlokas, which we should try to understand the background of it. Evam. Arthah ativa saralarthah eva sarveshu ayaneshu yatha bhagamastitaha bhavantas sarve eva bhishmam eva abhirakshantu. Being stationed in your own places, in your own akshohinis, in the army, please support and try to protect Bhishma alone first, which is the first task which you should take in hand. Evam yadi vyakarana bhagam pashyamaschet sandhihi eva abhirakshantu saralamasti savarna dirgha sandhihi sarve eva sarva eva kshamyatam sarva eva tatra sarve eva iti bhavishyati sarve eva a plus a kim bhavitavyam, what should happen when a joins with a, ideally what should be the adesha, prathama adesha kah, a e ur, we know if they join together samana swaraha agachanti chete dirghaha adeshaha bhavati. In A and A, what will get adesha? Okay, one more sub question to that. A is a hrasva swara or dirgha swara? No answers. Hrasva, okay. Dirgha swara, okay. It is a simple, again, pure maths also we can say, through Panini rules also we can say. A is a formation of which two letters? A is a formation of Adeng Gunaha. A is a Guna letter. Therefore, A is a formation of A plus E. Will be A having one matra and E having one matra. Even if we put 1 plus 1, it will become 2 matras. Therefore, dirgha eva bhavishyati. No chete samskrita bhashayam A dirgha eva asti. Tatra hraswa dirgha na, hraswa ekaraha nasti. Anya kannadadi bhasha vat tatra hraswa ekaraha nasti. Dirgha ekaraha eva asti. It is always sarve eva. So, dirgha only should be tell. It is always venkata chalaha, venkateshaha only. Evam. Sarve eva asti. So now A plus A joins, tatra kaha aksharaha adeshaha bhavati. What should come when A and A join? Yantavanta is correct. Which letter in that? There are four letters. Ayu, ayu, av, av. Out of that, which will come? I. Very good. Evam. Ayu adeshah bhavati. So, let us say, I take hare plus a. I have a plus a. We will get ayu. Harayu plus a. Tatra a api adasti. In the right hand side, what a we have, it will become haraye. Actually, hare plus a plus a will become ayu. And then haraye bhavishyati. Yame vidyatra pashyamaschete sarve eva a plus a, we should have actually had a ya actually, ayu, which should be have been there. But then what happens? Prathamataya yantavantesha sandhi bhavati, anantram yakarasya lopaha bhavati, anantram tadanantaram tatra lopa shakalyasya iti vartikam asti, tadanantaram prakriti bhavaha yavadeva asti. And prakriti bhava stays. There is no more further sandhi to be made, which is why we should stop there and keep it as sarva eva maharathaha. Yameva. Agre gachamaha. Samasaha yatha bhagam tatra bhagam anatikramya. As much as in your places. Yatha shakti iti vayam pashyamaschete shaktim anatikramya. How much ever possible yatha shakti karyam kurvantu. Tatra yatha mati vadamaha. Yadi tatra Bhagavad Gita yaha adhyenam yatha mati kurmaha. As much as possible, as much as we know, we are sharing the Bhagavad Gita. We are trying to discuss together what we know in the Bhagavad Gita. Yatha mati vadamaha. The greatest of scholars and greatest of people again who have started the Bhashyakaras also have started like this. Yathadhitam yathamati aham bhashyam karomi. Yathadhitam, whatever little we have learned from our gurus, whatever little we know, we are trying to put together is what even they are telling. When such Bhashyakaras are only telling that thing, we are very, very lesser than them. So evam yathabhagam, bhagam anatikramya, not crossing that. Yathadhitam yathamati. Evam avyibhava samasaha bhavishyati yatha bhagam avasthitaha saralamasti tatra kridantam pashyamaschete kridantaha tatra bhuta kridanteshu ta tavat vartate ta pashyamaschete tatra av pasargapurvaka sthadatoho kta pratyaha bhavishyati avasthitaha. Avastha ayaneshu ay lyut bhavati ayante ebihi iti ayanani tatra ayanam ityukte gamanam ityapi arthah bhavati tatra eka gana samuhaha ityapi artha svikartum shakyate atra ayante gachanti ebihi iti ayanani teshu ayaneshu tadrusha ayaneshu sarveshu yatha bhagam avasthitaha. Evam, we did discuss Malati Mami asked for the question. We did discuss this. Vishesha Tippanim Pashyamasyate Bhishmam Eva Abhirakshantu. When we are in a crisis, we always try to see that what is that one thing which we do if we'll become correct always. If we can just come out of that crisis. There's a single policy goal strategy which people always try to put. So if Bhishma is protected, everything will be safe. Let us try to protect him and let us try to take other things forward. He is one of the immediate reaction of Duryodhana, which is why he says, Bhishmam eva abhirakshantu. Again, in this shloka, we also saw the Kshatriya qualities. Arati, she shared a few notes about Bhagavad Gita, which we are thankfully using it. Thanks to Arati. These are the takeaways from her notes. Kshatriya qualities. Again, Kshatriyaha Sarvada, whom you should fight, whom you should not fight. We have seen the story in Ramayana also. Yatra Ramaha Kinchite Tataka Vada Samaye Kinchite Sandeham Asti Ramasya Manasi Tada Vishwamitraha Vadati. It is true, rule number one, that we should never fight and kill women. That is a good rule. But then later on, where the woman is a Rakshasi and they are hurting other people, then the kshatat trayate iti dharmaha agachati tatra. Kshatriya, the word kshatriya, if we split it, kshatat trayate. Kshatam means wound or troubles. One who protects us from troubles and wounds is a kshatriya. Therefore, your basic dharma of kshatriya, you should still do it. And that is when you should kill Tataka, was what Vishwamitra told. But then here, still, there is no harm by Shikhandi. It is only that he is a born female, which is why Bhishma decides not to fight him. So these are a few Kshatriya Dharma, or also we can learn in the previous classes in various shlokas. We saw Acharya Dharma, we saw Guru Dharma, we saw how we should respect people. Through Sukshma Ritya Yetat Sarvam Asmabhi Adhyanam Kartavyam Evam Kshatriya Dharmam Atra Pasitamasti. Anyaha Vishaya Tavati Yadi Pashyamaschet, we should always know the strength and weakness of our opponents. So what will try to, which will be able, through what weakness of the enemy we will be able to defeat them should also be known always. So that is Rajadharmam. Again, that is Rajatantram Rajadharmam. So which also we should know how to protect ourselves. Evam Ekadasha Shlokaha Ekavaram Ekadasha Shlokam Ekavaram Vadamaha Arthavagamanam Abhutva Iti Pashyamaha Anantaram Dvadasha Shlokartham Gacchamaha. Ayaneshu Cha Sarveshu Yathabhagam Avasthitaha Bhishmameva Bhirakshantu Bhavantas Sarva Evahi. Anantaram Padam Vadamaha Sarve Anudantu Tasya Sanjanayan Harsham. Kuru Vriddhav Pitamaha Simhanadam Vinadyochaihi Shankham Dadhmau Pratapavan. Vakyaritya Vadamaha Tasya Sanjanayan Harsham Kuru Vriddhav Pitamaha Simhanadam Vinadyochaihi Shankham Dadhmau Pratapavan. Purnaritya Vadamaha Tasya Sanjanayan Harsham Kuru Vriddhav Pitamaha Simhanadam Vinadyochaihi Shankham Dadhmau Pratapavan. 12th shloka of 47 shlokas. Padachedaha Tasya Sanjanayan Harsham Kuru Vriddhaha Pitamaha Simhanadam Vinadya Uchaihi Shankham Dadhmau Pratapavan. Tivasaralamasti. Idanim Kartripadam Karmapadam Kriyapadam Shigraditya Vadantu. Samayaha Nasti Shigram Vadantu. Dash dash dash. Ativa Saralaha Vartate. Kartripadam Kriyapadam Karmapadam Shigram Vadantu. Pitamaha Kartripadam Samyak. Very good. Agree. Kriyapadam. Dadhmau. Samyak. Dadhmau. Kam dadhmau. Karmapadam. Shankham, Tavadeva, Ativa Saralamasti. See how easy these Vakyas are. Very, very simple Vakyas. Pitamaha, Shankham, Dadhmau. Pitamaha, Bhishma, blew the conch. Tavadeva, Ativa Saralamasti. Pitamaha, Shankham, Dadhmau. Kidrushaha, Pitamaha, Pratapavan, Kuru Vriddhaha, Pitamaha. Kidrusham, Shankham, Dadhmau. Simhanadam, Vinadya, Shankham, Dadhmau. Kidrusha Swarena, Dadhmau. Uchaihi Swarena, Dadhmau. Kimartham dadmau Duryodhanasya Harsham Sanjanayan Saha dadmau Tavadeva. Evam Pashyamaschet. Pratapavan. Pratapavan Kuru Vriddhaha Pitamaha. Pitamaha Bhishmacharyaha. तत्र अन्वयार्थे यत् संस्कृतार्थः अस्ति तत्र किञ्चित् भेदः अस्ति, क्षम्यताम्, देर् इस् सम् wrong this thing of the previous table has been copied to this, apologies for the mistake, but I will tell the and orally I will tell it and we'll replace that. Probably the notes is right, probably pratapavan tatrapi ekvaram pashyatu notes madhye api bhinnam asti chete tat samyak ritya tad samikaranam krutva preshayamaha. Pratapavan dhiman yah dhirah asti tadrashah pratapavan, very very strong and valorous, very courageous. Pratapavan Bhishma Kuruvriddha, Kuruvriddha the oldest person who is there in the Kaurava army. Pratapavan yaha asti Kuruvriddha yaha asti Pratapavan can also be taken as Dhiraha, Veeraha, Tejasvi ityapi svikartum shakyate. Kuruvriddha, Kurushu Vriddha, Jeshtaha, Ativa Jeshtaha, the eldest person of the Kurus who was there, saha Pitamaha, Pitamaha पितुः पिता, पितुः पिता तस्य पिता, एवं पितामहः प्रपितामहः इत्यपि स्वीकर्तुं शक्यते. साधारणरीत्या तत्र जनानाम् आह्वानार्थं पितामहः इति शब्दस्य उपयोगः अस्ति. एवं पितामहः भीष्मः तस्य हर्षं सञ्जनयन्, तस्य कस्य दुर्योधनस्य हर्षं, हर्षं सन्तोषं मोदं तुष्टिं सञ्जनयन् उत्पादयन्, तत्र giving more happiness to Duryodhana, causing lot of cheer, happiness, enthusiasm to Duryodhana. Saha kim krutavane simhanadam vinadya, simhanadam iva garjanam krutva, simhanadam iva, simha iva saha garjanam krutavane, simhanadam vinadya saha shankham uchaihi dadhmau, saha shankham tatra shankham yadasti kanj yadasti उच्चैः अतीव उच्चस्वरेण सः गाढस्वरेण दीर्घरीत्या सः दध्मौ आध्मातवान्, सः दध्मौ शङ्खस्य तत्र शब्दं कृतवान्, शब्दं कारितवान्. एवमेव अतीव सरलमस्ति. कुरुवृद्धः प्रतापवान्, कुरुवृद्धः पितामहः, वेरि वेरि पवर्फुल् ओल्डेस्ट् आफ् कुरुस्, द सीनियर् मोस्ट् मेम्बर् आफ् द कौरव आर्मी पितामहः भीष्मा, तस्य सञ्जनय हर्षं सञ्जनयन्, तस्य दुर्योधनस्य हर्षं सञ्जनयन्, ट्रैङ्ग् टु कास् सम् एन्थूसियासम्, ट्रैङ्ग् टु प्लीस् एण्ड् मोटिवेट् दुर्योधन, किं कृतवान्, सिंहनादं विनद्य, सिंहस्य नादमिव गर्जनं कृत्वा, विनद्य गर्जनं कृत्वा, गर्जित्वा सः शङ्खम् उच्चैः दध्मौ, सः वेरि वेरि in a very loud voice he blew the conch. Yadi tatra pada parichayam pashyamaschete pratapavan pratapavat takarant pullingah prathama ekavachanam, kuruvriddah pitamaha ubhavapi tatra akarant pullinga prathama ekavachanam, tasya tat shabdah dakarantah sarvanam shabdah pullinga shashti ekavachanam, tasya ramasya shashti, harsham पुल्लि अकारान्तःपुल्लिङ्ग द्वितीय एकवचनं, हर्षं सञ्जनयन्, किं सञ्जनयन्, हर्षं सञ्जनयन्. एवं द्वितीयाविभक्ति कर्मपदं तावत् सञ्जनयन् कृते, यदि वयं पश्यामश्चेत् सञ्जनयत् शब्दः, सञ्जनयन् शत्रु, अग्रे पश्यामः व्याकरणभागे, सञ्जनयत् तकारान्तःपुल्लिङ्ग प्रथमैकवचनं, सञ्जनयन् सिंहनादं, सिंहनादं नमुलन्तं, विनद्य ल्यबन्तम्, अव्ययम् उभावपि अव्ययम्, अग्रे विस्तारं पश्यामः. शङ्खं तावत् कर्मपदं द्वितीयाभक्ति एकवचनम्, उच्चैः इति अव्ययम्, उच्चैः नीचैः सर्वम् अव्ययशब्दम्, उच्चैः इति तत्र तृतीया बहुवचनम् इति न वक्तव्यं, तत् विनद्य, विनद्य विनद्य गर्जनं कृत्वा, तत्र संशयः अस्ति, विनद्य इति गर्जनं कृत्वा. व्याकरणभागे पश्यामः तत्र पदोत्पत्तिः पश्यामः, अतीव अर्थं सम्यक् भवति तत्र. दध्मौ यदि वयं पश्यामश्चेत् ध्माधातुः, तत्र ध्माधातोः अर्थस्तावत् ध्मा शब्दाग्निसंयो संयोगयोः, शब्द अग्निसंयोगे ध्मा इति तत्र शब्दस्य प्रयोगं कर्तव्यम्. we see that the root form, like if we have to see raksha palane, in the previous shloka we saw abhirakshantu, tatra raksha palane iti bhavati, tatra dhatvartah, atra dhatvartah pashyamaschete dhma shabdagni samyogayoh iti asti. तत्र लिट् लकारः यदि वयं पश्यामश्चेत् सकर्मकधातुः अनिट् प्रयोगः परस्मैपदी मध्ये लिट् लकारः यदि वयं पश्यामश्चेत् दध्मौ दध्मतुः दध्मुः दध्मित दध्मात दध्मतुः दध्म दध्मौ दध्मिव दध्मिव एवम् आगच्छति तत्र दध्मौ इति लिट् लकार प्रथमपुरुष एकवचनं दध्मौ एवम् अग्रे गच्छामश्चेत् अर्थः प्रतापवान् कुरुवृद्धः पितामहः दुर्योधनस्य सन्तोषं जनयन् सिंहनादम् इव गर्जनं कृत्वा अनन्तरम् उच्चैः शङ्खम् आध्मातवान् पश्यामः सन्धिभागः हर्षं कुरुवृद्धः हर्षं कुरुवृद्धः अनुस्वारसन्धिः विनद्य उच्चैः आ प्लस् उ ओ भवति गुणसन्धिः सिंहनादम् विनद्योच्चैः नादं प्लस् उच्चैः विनद्य अनुस्वारसन्धिः शङ्खं दद्मौ मकार विद् स्ट्रोक् बिकम्स् रीप्लेस् बै अनुस्वार अनुस्वारसन्धिः सरलः अस्ति एवं शीघ्रं गच्छामि समासः प्रतापवान् हा प्रतापवान् वेरि गुड् प्रतापवान् आल्सो वि विल् सी तस्य अस्य अस्ति इति मतुप्रत्ययः भवति वि विल् सी दट् जस्ट् इन् फ्यू मिनिट्स् फ्यू सेकेण्ड्स् वि विल् सी दट् समासः कुरुवृद्धः कुरुवृद्धः कुरुषु वृद्धः सप्तमी तत्पुरुषः अमङ्ग् द कुरुस् इन् अमङ्ग् द कुरुस् अमङ्ग् आल् द कुरुस् एषः एव वृद्धः ज्येष्ठः वृद्धः वि विल् सीन् द विशेष टिप्पणी वृद्धः डस् नाट् मीन् हि इस् ओल्ड् इट् ओन्ली मीन्स् हि इस् अ सीनियर् पर्सन् एन् एक्स्पीरियन्स्ड् पर्सन् एवं ज्येष्ठः इत्यर्थः स्वीकर्तव्यः न तु जरठः वा तत्र जीर्णः पुरुषः इति न स्वीकर्तव्यः कृदन्तः इफ् इसि सञ्जनयन् अगेन् जन् विल् बी द बेसिक् धातु सम् उपसर्गपूर्वक जन् धातोः णिच् प्रत्ययः सञ्जनयन् भवति सञ्जनय यः भवति अनन्तरं शत्रुप्रत्ययः वर्तमानकृदन्तमध्ये शत्रुशानचिति प्रत्ययौ द्वौ भवतः तत्र अस्मिन् पदे शत्रुप्रत्ययस्य आदेशः अस्ति सिंहनादम् अगेन् सिंह नद् धातु नमुल् प्रत्ययः अगेन् इट् विल् कम् एस् अ सिंह इव नादं सो उपमावाचकशब्दं भवति तत्र धातोः णमुळ् भवति एवं सिंहनादं सिंह इव नादं यस्य अस्ति सिंहनादम् इति भवति णमुळन्त अव्ययं णमुळन्ताव्ययं भवति विनद्य अगेन् इफ् यु सी वि उपसर्गपूर्वक नद् धातोः ल्यप् प्रत्ययः सो वेन् उपसर्ग इस् देर् त्वान्ता केनाट् बि यूस्ड् देर् फोर् ल्यबन्ता वि यूस् देर् फोर् विनद्य इति भवति अनन्तरं पितामहः दिस् इस् पितृ अगेन् पिता इत्यर्थे पितुः पिता तस्य पिता प्रपिता वी हेव् अदर् वर्ड्स् एनिवेस् पितामहः प्रपितामहः पितुः प्रपितामहः इत्यादि शब्दाः सन्ति यद्यपि सन्ति अत्र पितामहः इस् अ कनटेशन् विच् इस् यूस्ड् टु डिस्क्रैब् भीष्म आल्वेस् इट् इस् अ जनरल् वर्ड् यूस्ड् अण्ड् डस् नाट् नेसरिलि मीन् द डैरेक्ट् रिलेशन्शिप् प्रतापवान् वाट् वि अनु मेडम् हस् आस्क्ड् प्रतापवान् प्रताप प्लस् मतुप् प्रत्ययः दट् शुड् बि मतुप् दर् इस् अ स्माल् प्रिण्टिङ्ग् मिस्टेक् तत्र मतुप् प्रत्ययः तस्य अस्य अस्ति इति मतुप् प्रत्ययः इन् तद्धित इफ् यु सी वाट् सम्बडि हेस् टु डिनोट् दट् वि आल्वेस् यूस् द मतुप् प्रत्ययस् दट् इस् लेट् अस् से बुद्धिमान् बुद्धिः अस्य अस्ति इति बुद्धिमान् एवं भवति मतुप् देर् फोर् प्रतापः प्रतापः वेरि मच् है वेलर् धीरः धीरत्वम् अस्य अस्ति इति प्रतापवान् भवति बुद्धिमान् धीमान् धीः अस्य अस्ति इति धीमान् एवम् अस्य अस्ति सम्बडि हेस् सम्थिङ्ग् इफ् यु हव् टु डिनोट् दट् देन् दट् इस् वेन् यूस् द मतुप् प्रत्यय इन् द तद्धितान्त देर् फोर् प्रतापवान् प्रतापः अस्य अस्ति इति प्रतापवान् प्रतापः अस्मिन् अस्ति इति प्रतापवान् दट् इस् द मतुप् प्रत्ययस् इन् द तद्धित clear hope all doubts are also being cleared any other doubts please just type there we will try to clarify it together otherwise we can always come back and you can always mail us also ಪ್ರತಾಪವಾನ್ ಕುರುವೃದ್ಧ ಪಿತಾಮಹ ಲೈಕ್ವೀಸ ಕುರುವೃದ್ಧ ಪಿತಾಮಹ ಭೀಷ್ಮ ಅಸ್ತಿ ಸಹ ಯದ್ಯಪಿ ಕುರುವೃದ್ಧ ತಥಾಪಿ ಸಹ ಪ್ರತಾಪವಾನ್ ದಟ್ ಇಸ್ ದ ಡಿಫರೆನ್ಸ್ ಆರ್ ಕಾಂಟ್ರಡಿಕ್ಷನ್ ವಿಚ್ ವಿ ಹ್ಯಾವ್ ಟು ಅಪ್ರಿಷಿಯೇಟ್ ಇನ್ ದ ಶ್ಲೋಕ ಸಹ ಪಿತಾಮಹ ಅಸ್ತಿ ವೆರಿ ವೆರಿ ಎಲ್ಡರ್ ಪರ್ಸನ್ ಅಂಡ್ ಈಸ್ ಆಲ್ಸೋ ಕುರುವೃದ್ಧ ಯದ್ಯಪಿ ಪ್ರತಾಪವಾನ್ ಹೀ ಈಸ್ ಆಸ್ ಗುಡ್ ಆಸ್ ಇನ್ ವೇಲರ್ ಆಸ್ ದ ಅದರ್ ಯಂಗ್ಸ್ಟರ್ಸ್ ಹು ಆರ್ ದೇರ್ ಇನ್ ದ ಫೀಲ್ಡ್ ವಿಚ್ ಇಸ್ ವಾಟ್ ಇಟ್ ಡಿನೋಟ್ಸ್ ಹಿಯರ್ ಅಗೇನ್ ಹರ್ಷಂ ಸಂಜನೆಯನ್ನೇ ಬೈ ಬ್ಲೂಯಿಂಗ್ ದಟ್ ಕಾಂಚ್ ಹೀಸ್ ಬ್ರಿಂಗಿಂಗ್ ಅಪ್ ದ ಚಿಯರ್ ಆಫ್ ದುರ್ಯೋಧನ ಏವಂ ಸ್ವರಾಜ್ಯ ಧರ್ಮಂ ಪ್ರೊಟೆಕ್ಟಿಂಗ್ ಹಿಸ್ ಕಿಂಗ್ ಹೂ ಅವರ್ ಇಸ್ ದೇರ್ ಆರ್ ದ ಕಿಂಗ್ ಸನ್ ವಿಚ್ ಇಸ್ ಅನ್ ಈಕ್ವಲ್ ಧರ್ಮ ಈಸ್ ಅಗೇನ್ ಶೋಯಿಂಗ್ ದಟ್ ಅಂಡ್ ಟ್ರೈಂಗ್ ಟು ಮೋಟಿವೇಟ್ ಹಿಮ್ ಫರ್ದರ್ ದೀಸ್ ಆರ್ ದ ಟೂ ವಿಶೇಷ ಟಿಪ್ಪಣೀಸ್ ವಿ ಕ್ಯಾನ್ ಸಿ ಇನ್ ದಿಸ್ ಶ್ಲೋಕ ಏಮೇವ ತತ್ರ ಅಗ್ರಿಮ ಶ್ಲೋಕಂ ಪ್ರತಿ ಗಚ್ಚಾಮಃ ದೀಸ್ ಆರ್ ಆಲ್ ಕ್ವೈಟ್ ಸಿಂಪಲ್ ಶ್ಲೋಕಾಸ್ ದೇರ್ ಫೋರ್ ವಿ ವಿಲ್ ಟ್ರೈ ಟು ಕವರ್ ಆಸ್ ಮಚ್ ಆಸ್ ಪಾಸಿಬಲ್ ಎನಿ ಡೌಟ್ಸ್ ಎನಿ ಟೈಮ್ ಪ್ಲೀಸ್ ಸ್ಟಾಪ್ ಆರ್ ಪ್ಲೀಸ್ ಮೇಲ್ ಅಸ್ ವಿ ವಿಲ್ ಟ್ರೈ ಟು ಕ್ಲಾರಿಫೈ ವಿ ವಿಲ್ ನಾಟ್ ಗೋ ಫಾಸ್ಟ್ ಸ್ಯಾಕ್ರಿಫೈಸಿಂಗ್ ದ ಕ್ಲಾರಿಟಿ ದಟ್ ವಿಲ್ ನಾಟ್ ಬಿ ದೇರ್ ಅಗ್ರಿಮ ಶ್ಲೋಕ ಏಕವಾರಂ ದ್ವಾದಶ ಶ್ಲೋಕಂ ಉಕ್ತ ತ್ರಯೋದಶ ಶ್ಲೋಕಾರ್ಥಂ ಗಚ್ಚಾಮಃ ತಸ್ಯ ಸಂಜನಯನ್ ಹರ್ಷಂ ಕುರುವೃದ್ಧ ಪಿತಾಮಹಃ ಸಿಂಹನಾದಂ ವಿನದ್ಯೋಚ್ಚೈಃ ಶಂಖಂ ದಧ್ಮೌ ಪ್ರತಾಪವಾನ್ ಅಗ್ರಿಮ ಶ್ಲೋಕ ತತಃ ಶಂಖಾಶ್ಚ ಭೇರ್ಯಶ್ಚ ದ್ವಿವಾರಂ ವದಂತು ಪಣವಾನಕ ಗೋಮುಖಾಃ ಸಹಸೈವಾಭ್ಯಹನ್ಯಂತ ಸಶಬ್ದಸ್ತು ಮುಲೋಭವತ್ ವಾಕ್ಯಂ ವದಾಮಃ ತತಃ ಶಂಖಾಶ್ಚ ಭೇರ್ಯಶ್ಚ ಪಣವಾನಕ ಗೋಮುಖಾಃ ಸಹಸೈವಾಭ್ಯಹನ್ಯಂತ ಸಶಬ್ದಸ್ತು ಮುಲೋಭವತ್ ಪೂರ್ಣ ಶ್ಲೋಕಂ ವದಂತು ತತಃ ಶಂಖಾಶ್ಚ ಭೇರ್ಯಶ್ಚ ಪಣವಾನಕ ಗೋಮುಖಾಃ ಸಹಸೈವಾಭ್ಯಹನ್ಯಂತ ಸಶಬ್ದಸ್ತು ಮುಲೋಭವತ್ ಥರ್ಟೀನ್ತ್ ಶ್ಲೋಕ ಆಫ್ ದ ಫಸ್ಟ್ ಚಾಪ್ಟರ್ ಆಫ್ 47 ಶ್ಲೋಕಾಸ್ ಪದಚ್ಛೇದಂ ಸ್ವಯಂ ಕುರ್ವಂತು ಪದಚ್ಛೇದಂ ತತ್ರ ಸ್ಕ್ರೀನ್ ಮಾ ಪಶ್ಯತು ಸ್ವಯಂ ಕುರ್ವಂತು ಪದಚ್ಛೇದಂ ತತಃ ಶಂಖಾಃ ಚ ಭೇರ್ಯಃ ಚ ಪಣವ ಆನಕ ಗೋಮುಖಾಃ ಸಹಸಾ ಏವ ಅಭ್ಯಹನ್ಯಂತ ಸಹ ಶಬ್ದಃ ತುಮುಲಃ ಅಭವತ್ ತಾವದೇವ ಪದಚ್ಛೇದಃ ಅತೀವ ಸರಳಮಸ್ತಿ ಅಗ್ರೆ ಶೀಘ್ರಂ ತತ್ರ ಕರ್ತೃಕರ್ಮ ಕ್ರಿಯಾಪದಂ ವದಂತು ಐ ವಿಲ್ ಗಿವ್ ಯು ಒನ್ ಕ್ಲೂ ದೇರ್ ಆರ್ ಟೂ ಕ್ರಿಯಾಪದಾಸ್ So, if there are two kriyapadas, we can form two sentences. Please identify the kriyapadas. Abhyahanyanta, very good. First kriyapada, correct. Tarhi, ke abhyahanyanta? Ke, kartrupadam. ಅಭವತ್ ವರ್ಬ್ ಟು ವೆರಿ ಗುಡ್ ವೆರಿ ಗುಡ್ ವೆರಿ ಗುಡ್ ಶಂಖಾಃ ಭೇರ್ಯಃ ಈಸ್ ಕೆನಾಟ್ ಬಿ ದ ಓಕೆ ವಿ ಕ್ಯಾನ್ ಟೇಕ್ ಇಟ್ ಆಸ್ ಕರ್ತೃಪದಂ ಇಫ್ ಯು ಟೇಕ್ ದ ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆಫ್ ದ ಫಾರ್ಮ್ ಆಫ್ ಇಟ್ ಓಕೆ ಓಕೆ ಕ್ವೈಟ್ ಓಕೆ ರೈಟ್ ವಿ ವಿಲ್ ಸಿ ದಿಸ್ ನೌ ತದಾ ಅಭ್ಯಹನ್ಯಂತ ವೇರ್ ಬೀಯಿಂಗ್ ಬ್ಲೇರ್ಡ್ ಯದಿ ವಯಂ ಏವಂ ಕರ್ಮಣಿ ರೀತ್ಯಾ ಸ್ವೀಕುರ್ಮಶ್ಚೇತ್ ತತ್ರ ಅಭ್ಯಹನ್ಯಂತ ವೇರ್ ಬೀಯಿಂಗ್ ಸೌಂಡೆಡ್ ವೇರ್ ಬೀಯಿಂಗ್ ಬ್ಲೇರ್ಡ್ ಅಪಾನ್ ಇಫ್ ಯು ಟೇಕ್ वाट् वेर् ब्लीङ्ग् बेर्ड् अपान् आल् दीस् शङ्काः भैर्यः आनकगोमुखाः दीस् वेर् बीङ्ग् ब्लेड् अपान् दिस् इस् द फस्ट् सेण्टेन्स् कैः इति स्वीकर्तव्यं तत्र इफ् यु हाव् टु सी वेरि वेरि टेक्निकली इफ् यु गो देन् कैः सर्वैः अन्यैः बै अदर्स् दट् विल् बि द कर्तृपदम् शङ्काः भैर्यः विल् आक्चुलि बि द कर्मपदम् देन् एण्ड् अभ्यहन्यन्त विल् बिकम् सर्वैः अन्यैः शङ्काः भैर्यः अभ्यहन्यन्त इस् वेर् वि विल् टेक् इट् लैक् दट् ओके नेक्स्ट् सेकेण्ड् वाक्य अभवत् कः अभवत् शब्दः अभवत् कीदृशः अभवत् तुमुलः अभवत् दट् शब्द बिकेम् वेरि वेरि तुमुलः तुमुलः हृदय हृदयगोचरः हृदयत्रासः अतीवघोरः अभवत् सो देर् आर् टु सेण्टेन्सस् विच् आर् देर् प्रथमवाक्यं तावत् तदा तस्मिन् समये कदा यदा भीष्मस्य शङ्खनादानन्तरम् इति अर्थः भीष्मस्य सिंहनादानन्तरं शङ्खनादानन्तरं तदा तस्मिन् समये इन् दट् टैम् शङ्काः भेद्यः पणवाः आनकाः गोमुखाः पञ्चवाद्यानि सन्ति अत्र पञ्चवाद्यं यदस्ति कान्शस् शङ्काः भेद्यः केटल् ड्रम्स् पणवाः टाबर्स् आनकाः ट्रम्पेट्स् गोमुखाः कौहान्स् दीस् आर् द फैव् पञ्चवाद्यं यदस्ति आल् द पीपल् देर् अन्यैः सर्वैः योद्धृभिः तत्र एते वाद्याः उद्घोषिताः अभ्यहन्यन्त सहसा एव इमीडियट्लि आल् आफ् देम् टुक् दट् एन्तूसियाज़म् एण्ड् सहसा एव सैमल्टेनियस्लि इमीडियट्लि झटिति एव युगपदेव तत्क्षणमेव अभ्यहन्यन्त नादिताः नादं कृताः अभ्यहन्यन्त अभ्यहन्यन्त अगेन् दो द बेस् इस् ओन्लि हन् विच् इस् अगेन् अहन् हिंसागत्योः ओन्लि बट् बै आडिङ्ग् अभि अभिहन्यन्त इट् गिव्स् द मीनिङ्ग् आफ् सौण्डेड् दो द धातु इस् हन्ति धातु वट् आर् द हन्ति हतः ग्रन्थि द सेम् धातु विच् वि यूस् देर् हन् हिंसागत्योः द सेम् धातु इस् यूस्ड् बट् स्टिल् वेन् वि यूस् इट् एस् अभ्यहन्यन्त इट् विल् बि एस् वेर् सौण्डेड् अपान् सो फस्ट् पार्ट् आफ् द सेण्टेन्स् बै आल् द अदर् पीपल् हू वेर् देर् दीस् फैव् वाद्यास् वेर् सौण्डेड् अपान् सेकेण्ड् वाक्य तावत् सः शब्दः अतीव तुमुलः अभवत् दट् नाय्स् विच् वास् देर् ईस् वास् वेरि वेरि फ्रैटनिङ्ग् ट्रेमेण्डस् वेरि वेरि लौड् एण्ड् उत्तेजक इट् वास् वेरि इट् वास् इन्स्टिगेटिङ्ग् द आर्मी मूड् आफ् द प्लेस् एवं सरलः अस्ति तत्र तदा अव्ययं वयं जानीमः दा दा कालार्थे दा भवति सप्तम्यर्थे त्र भवति एवमेवं वयं पश्यामः दा कालार्थे तदा यदा सर्वदा एकदा अन्यदा एवं तत्र दा यदस्ति कालार्थे कालार्थक अव्ययः अव्ययानि भवन्ति एतत् सर्वं तदा अव्ययं शङ्काः भेद्यः पणव आनकाः गोमुखाः सर्वे प्रथमाविभक्ति बहुवचनं शङ्ख अकारान्तपुल्लिङ्ग भेरी शब्दं भवति ईकारान्तस्त्रीलिङ्गः भवति पणवः आनकः गोमुखः अकारान्तःपुल्लिङ्गः तावदेव सहसा एव अव्ययं सहसापि अव्ययम् एव अपि अव्ययम् अभ्यहन्यन्त अगेन् अभ्यहन्यन्त इफ् यु सी हन् धातुः अभि उपसर्गपूर्वक सकर्मकधातुः अनिट् प्रयोगः एवं परस्मैपद्यां लङ्लकारः भवति यदि वयं पश्यामश्चेत् अभ्यहन्यत अभ्यहन्येताम् अभ्यहन्यन्त अभ्यहन्यथाः अभ्यहन्येथाम् अभ्यहन्यध्वम् अहन् अभ्यहन्ये अभ्यहन्यावहि अभ्यहन्यामहि एवं भवति तत्र दीस् आर् द फार्म्स् इफ् यु सी सः तच्छब्दः प्रथमा एकवचनं शब्दः तुमुलः पुल्लिङ्गप्रथमा एकवचनम् अभवत् सरलमस्ति अभवत् भूसत्तायाम् इस् द धातु भूसत्तायां वाचि अगेन् अकर्मकः वादिगणः लङ्लकारः भवति लङ्लकारः फार्म्स् अभवत् अभवताम् अभवन् अभवः अभवतम् अभवत अभवम् अभवाव अभवाम दीस् आर् द फार्म्स् फार् द धातूस् अर्थः फालोयिङ्ग् भीष्मास् कान्च् आल् द अदर् पीपल् ब्लू द पञ्चवाद्यास् कान्च् केटल् ड्रम्स् टाबर्स् ट्रम्पेट्स् अण्ड् कौहान्स् एण्ड् द नाय्स् वास् वेरि वेरि ट्रेमेण्डस् यदि वयं सन्धिभागं पश्यामश्चेत् शङ्काः प्लस् च शङ्काः विसर्गस्थाने सकारादेशः सकारस्य स्तोश्चुनाश्चुः सकारस्य च ಚಕಾರಃ ಆದೇಶ ಭವತಿ ಏವಂ ವಿಸರ್ಗಸಂಧಿ ಸಕಾರಾದೇಶ ಪ್ರಥಮತೆಯ ಅನಂತರಂ ಶುತ್ವಸಂಧಿ ಭವಿಷ್ಯತಿ ಏವಂ ಭೇರ್ಯಶ್ಚ ಆಲ್ಸೋ ಇಸ್ ದ ಸೇಮ್ ಭೇರ್ಯಃ ಪ್ಲಸ್ ಚ ಭೇರ್ಯಶ್ಚ ಸಹಸ ಏವ ಸಹಸೈವ ಆ ಪ್ಲಸ್ ಎ ಗಿವ್ಸ್ ಅಸ್ ಐ ಔ ವೃದ್ಧಿಃ ಆದೈಚ್ ಏವಂ ವೃದ್ಧಿರಾದೈಚ್ ವೃದ್ಧಿರೇಚಿ ಇತಿ ಸೂತ್ರಾಣಿ ಭವಂತಿ ತತ್ರ ಸಹಸ ಏವ ಆ ಪ್ಲಸ್ ಎ ಐ ವೃದ್ಧಿಸಂಧಿಃ ಸಹಸೈವ ಪ್ಲಸ್ ಅಭ್ಯಹನ್ಯಂತ ಆ ಪ್ಲಸ್ ಅ ದೀರ್ಘ ಆದೇಶ ಭವತಿ ಅಕಃ ಸವರ್ಣೆ ದೀರ್ಘ ಆದೇಶ ಭವತಿ ಸಹಸೈವ ಪ್ಲಸ್ ಅಭ್ಯಹನ್ಯಂತ ಸವರ್ಣದೀರ್ಘ ಸಂಧಿ ಅತೀವ ಸರಳಮಸ್ತಿ ಏವಂ ಶೀಘ್ರತೆಯ ಗಚ್ಚಾಮಿ ಶಬ್ದಃ ತುಮುಲಃ ವಿಸರ್ಗಸ್ಥಾನೆ ಸಕಾರಾದೇಶ ಶಬ್ದಸ್ತುಮುಲಃ ತುಮುಲೋ ಅಭವತ್ ಅಗೇನ್ ದೇರ್ ಆರ್ ತ್ರೀ ಸಂಧೀಸ್ ಹಿಯರ್ ವಿ ಶುಡ್ ಬಿ ವೆರಿ ಕೇರ್ಫುಲ್ ಹೌ ವಿ ಸ್ಪ್ಲಿಟ್ ಇಫ್ ಯು ಸ್ಪ್ಲಿಟ್ ಇಸ್ ಅಸ್ ತುಮುಲೋ ಪ್ಲಸ್ ಅಭವತ್ ಓನ್ಲಿ ರಿಮೂವಿಂಗ್ ದ ಎಸ್ ಅವಗ್ರಹ ಚಿಹ್ನ ದೆನ್ ಇಟ್ ವಿಲ್ ಬಿ ಓನ್ಲಿ ಪೂರ್ವರೂಪ ಸಂಧಿ ಇಫ್ ವಿ ಸ್ಪ್ಲಿಟ್ ಇಟ್ ಅಸ್ ತುಮುಲಃ ಪ್ಲಸ್ ಅಭವತ್ ಪ್ರಥಮತೆಯ ತುಮುಲಃ ವಿಸರ್ಗಸ್ಥಾನೆ ಉಕಾರಃ ಭವಿಷ್ಯತಿ ತುಮುಲಃ ಪ್ಲಸ್ ಅಭವತ್ ವಿಸರ್ಗ ವಿಲ್ ಬಿಕಮ್ ಉ ದೆನ್ ವಾಟ್ ವಿಲ್ ಹ್ಯಾಪನ್ ದ ಆ ವಿಚ್ ಇಸ್ ದೇರ್ ಇನ್ ಲ ಲ ಪ್ಲಸ್ ಆ ವಿಚ್ ಇಸ್ ದೇರ್ ಆ ಪ್ಲಸ್ ಉ ವಿಲ್ ಬಿಕಮ್ ಓ ದೆನ್ ಇಟ್ ಬಿಕಮ್ ತುಮುಲೋ ಪ್ಲಸ್ ಅಭವತ್ ವೆನ್ ಎ ಆರ್ ಓ ಇಸ್ ಫಾಲೋಡ್ ಬೈ ಅಕಾರ ಅಕಾರಸ್ಯ ಸ್ಥಾನೆ ಅವಗ್ರಹ ಚಿಹ್ನಂ ಭವತಿ ಏವಂ ಪೂರ್ವರೂಪ ಸಂಧಿ ಭವಿಷ್ಯತಿ ಏವಂ ವಿಸರ್ಗ ಗುಣ ಪೂರ್ವರೂಪ ತ್ರೀ ಸಂಧೀಸ್ ಆರ್ ಹ್ಯಾಪನಿಂಗ್ ಇನ್ ದ ವರ್ಡ್ ತುಮುಲೋ ಭವತ್ ಗೋಮುಖಂ ಯದಿ ಪಶ್ಯಾಮಶ್ಚೇತ್ ಗೋಮುಖಂ ಗೋಹೋ ಮುಖಂ ಇವ ಮುಖಂ ಯಸ್ಯ ಸಹ ವಿ ಆಲ್ರೆಡಿ ಸಾ ದಿಸ್ ಇನ್ ದ ಪ್ರೀವಿಯಸ್ ಒನ್ ಆಫ್ ದೀಸ್ ಅಶ್ವಸ್ಯ ಸ್ಥಾಮಾ ಇವ ಸ್ಥಾಮಾ ಯಸ್ಯ ಸಹ ಅಶ್ವಸ್ಥಾಮಾ ಗಜಸ್ಯ ಆನನಂ ಇವ ಆನನಂ ಯಸ್ಯ ಸಹ ಗಜಾನನಃ ವೃಕಸ್ಯ ಉದರಂ ಇವ ಉದರಂ ಯಸ್ಯ ಸಹ ವೃಕೋದರಃ ಏವಮೇವ ಗೋಹೋ ಮುಖಂ ಇವ ಮುಖಂ ಯಸ್ಯ ಸಹ ಗೋಮುಖಃ ಬಹುವ್ರೀಹಿ ಸಮಾಸಃ ತತ್ ವಾದ್ಯ ವಿಶೇಷಃ ಏವ ಪಣವಾನಕ ಗೋಮುಖಾಃ ಪಶ್ಯಾಮಶ್ಚೇತ್ ಪಣವಶ್ಚ ಆನಕಶ್ಚ ಗೋಮುಖಶ್ಚ ತೇ ಸರ್ವೇ ಪಣವಾನಕ ಗೋಮುಖಾಃ ದ್ವಂದ್ವ ಸಮಾಸಃ ಸಮಾಹಾರ ದ್ವಂದ್ವಃ ಅಭ್ಯಹನ್ಯಂತ ಅಗೇನ್ ಇಫ್ ಯು ಸೀ ಅಭ್ಯಹನ್ಯಂತ ಅಭ್ಯಹನ್ಯಂತ ಇಸ್ ದೋ ಹಿಂಸಾಗತ್ಯೋ ಇಸ್ ದ ಧಾತು ವಿ ಸಾ ಇಟ್ ಇಸ್ ಗಿವಿಂಗ್ ದಟ್ ಸೌಂಡ್ ಅಂಡ್ ಗಿವಿಂಗ್ ದಟ್ ಎನ್ಕರೇಜ್ಮೆಂಟ್ ಅಂಡ್ ಎಂಥೂಸಿಯಾಸಮ್ ಟು ಸ್ಟಾರ್ಟ್ ದ ಬ್ಯಾಟಲ್ ಅಂಡ್ ನಾಟ್ ಕೀಪ್ ಟಾಕಿಂಗ್ ಅಗೇನ್ ವಿ ಟ್ರೈಡ್ ಥ್ಯಾಂಕ್ಸ್ ಟು ಆರ್ತಿ ಫಾರ್ ಆಲ್ ದೀಸ್ ನೈಸ್ ಫೋಟೋಸ್ ಅಬೌಟ್ ದ ಪಂಚವಾದ್ಯಂ ವಿ ಥಾಟ್ ವಿ ಕ್ಯಾನ್ ಜಸ್ಟ್ ಸಿ ಆಲ್ ಆಫ್ ದೀಸ್ ಅಂಡ್ ಟ್ರೈ ಟು ರಿಮೆಂಬರ್ ಇಟ್ ಬೆಟರ್ ಬೇರಿ ಇಸ್ ದ ಕೆಟಲ್ ಡ್ರಮ್ ವಿ ಸಿ ಹಿಯರ್ ಗೋಮುಖಾಹ ಫ್ರಮ್ ದ ಕೌಸ್ ಹಾರ್ನ್ ದೇ ಮೇಕ್ ಸಮ್ ಹೋಲ್ಸ್ ಇನ್ ಇಟ್ ಅಂಡ್ ದೇ ಮೇಕ್ ಇಟ್ ಆಸ್ ಅ ಕೈಂಡ್ ಆಫ್ ಅ ಟ್ರಂಪೆಟ್ ಆರ್ ಅ ಬ್ಯೂಗಲ್ ಆನಕಾಹ ಆರ್ ಪ್ಯೂರ್ ಬ್ಯೂಗಲ್ಸ್ ಅಗೇನ್ ವೇರಿಯಸ್ ಓಲ್ಡ್ ಟೈಪ್ಸ್ ಆಫ್ ಬ್ಯೂಗಲ್ಸ್ ವಿ ಕ್ಯಾನ್ ಸಿ ಹಿಯರ್ ಪಣವಾಹ ವಿಲ್ ಬಿ ದ ಟ್ಯಾಬರ್ ಫ್ಲಾಟ್ ಡ್ರಮ್ ವಿಚ್ ಇಸ್ ದೇರ್ ವಿತ್ ದ ಡಬಲ್ ಡಬಲ್ ಸ್ಟಿಕ್ಸ್ ದೇ ಪ್ಲೇಟ್ ಪಣವಾಹ ಆನಕ ಗೋಮುಖಾಹ ದೀಸ್ ಆರ್ ದ ವೇರಿಯಸ್ ಆಬ್ಜೆಕ್ಟ್ಸ್ ಆಫ್ ವಾದ್ಯಾಸ್ ವಿಚ್ ಹವ್ ಬೀನ್ ಸೌಂಡೆಡ್ ನೌ ಸೊ ವಿತ್ ದಿಸ್ ವಾದ್ಯ ಘೋಷ ವಿತ್ ದಿಸ್ ಮಂಗಳ ವಾದ್ಯ ಘೋಷ ದ ಲಾಸ್ಟ್ ಪಿಕ್ಚರ್ ಹಿಯರ್ ಡಿನೋಟ್ಸ್ ಹಿಯರ್ ಅರ್ಜುನ ಅಂಡ್ ಕೃಷ್ಣ ವಿಚ್ ವಿ ವಿಲ್ ಸೀ ಇನ್ ದ ಅಗ್ರಿಮ ಕಕ್ಷಾಯಾಂ ಪಶ್ಯಾಮಃ ಕಿಂಚಿತ್ ವಿಳಂಬೋ ಭವತ್ ಯದ್ಯಪಿ ತತ್ರ ಶ್ಲೋಕತ್ರಯಂ ಅದ್ಯತನಸ್ಯ ಶ್ಲೋಕತ್ರಯಂ ಉಕ್ತ್ವಾ ತತ್ರ ಕಕ್ಷಾಯಾಃ ವಿರಾಮಂ ಕುರ್ಮಃ ಅಗ್ರಿಮ ಕಕ್ಷಾ ತಾವತ್ ತ್ರಯೋದಶ ದಿನಾಂಕೆ ಭವಿಷ್ಯತಿ ಪ್ರಾತಃ ಷಡ್ವಾದನೆ ಯಾವತ್ ಪೂರ್ವಮೇವ ಭವಿಷ್ಯತಿ ಶ್ಲೋಕತ್ರಯಂ ವದಾಮಃ ಇದಾನೀಂ ಅಯನೇಷು ಚ ಸರ್ವೇಷು ಯಥಾ ಭಾಗಮವಸ್ಥಿತಾಃ ಭೀಷ್ಮಮೇವಾಭಿರಕ್ಷಂತು ಭವಂತಃ ಸರ್ವ ಏವ ಹಿ ತಸ್ಯ ಸಂಜನಯನ್ ಹರ್ಷಂ ಕುರು ವೃದ್ಧ ಪಿತಾಮಹಃ ಸಿಂಹನಾದಂ ವಿನದ್ಯೋಚ್ಚೈಃ ಶಂಖಂ ದಧ್ಮೌ ಪ್ರತಾಪವಾನ್ ತತಃಶಂಖಾಶ್ಚ ಭೇರ್ಯಶ್ಚ ಪಣವಾನಕ ಗೋಮುಖಾಃ ಸಹಸೈವಾಭ್ಯಹನ್ಯಂತ ಸಶಬ್ದಸ್ತುಮುಲೋ ಭವತ್ ಯತ್ರ ಯೋಗೇಶ್ವರಃ ಕೃಷ್ಣೋ ಯತ್ರ ಪಾರ್ಥೋ ಧನುರ್ಧರಃ ತತ್ರ ಶ್ರೀರ್ವಿಜಯೋ ಭೂತಿರ್ಧ್ರುವಾನೀತಿರ್ ಮತಿರ್ಮಮ ಗುರುರೇವ ಗತಿಃ ಗುರುಮೇವ ಭಜೆ ಗುರುಣೈವ ಸಹಾಸ್ಮಿ ನಮೋ ಗುರವೇ ನ ಗುರೋಃ ಪರಮಂ ಶಿಶುರಸ್ಮಿ ಗುರೋರ್ ಮತಿರಸ್ತಿ ಗುರೌ ಮಮ ಪಾಹಿ ಗುರೋ ರಾಮ್ 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 ಸರ್ವೇಭ್ಯಃ ಧನ್ಯವಾದಃ ಆಗಾಮಿ ಕಕ್ಷಾಯಾಂ ಪುನರ್ಮಿಲಾಮಃ ತಾವತ್ ಪರ್ಯಂತಂ ಸರ್ವೇಭ್ಯಃ ಶುಭಂ ಭವತು ಕ್ಷೇಮಂ ಭವತು ರಾಮ್ ರಾಮ್ ರಾಮ್. राम राम राम. शोभना मामी, यू हैव सम क्वेश्चंस?